सर्वेभ्यो नमस्कारः. श्रद्धा भगिनी नमस्कारः. सर्वेभ्यो नमस्कारः. अद्य अस्माकं विषयः अस्ति आत्मनेपदी धातूनाम् अभ्यासः इति. गतवर्गे वयम् आत्मनेपदीनां धातूनां परिचयः कथारूपेण कृतवन्तः. तत्र भ्रातृमेदनम् इति कथां पठितवन्तः. तत्र बहूनि आत्मनेपदी क्रियापदानि दृष्टवन्तः वयं. रमन्ते, मोदते, प्रतिष्ठते, निरीक्षते, वर्तते, ब्रूते इति. तत्र पूर्वं वयं परस्मैक्रियापदानि दृष्टवन्तः. तत्र तु चिन्ता कोऽपि समस्या नास्ति, वयं बहु अभ्यासं कृतवन्तः तस्य विषये. किन्तु अत्र आत्मनेपदी धातूनां विषये रूपभेदः किञ्चित् भिन्नः अस्ति रूपम्. अतः किञ्चित् अभ्यासः आवश्यकः अस्ति. तद् अद्य कुर्मः. तत्र वयं प्रथमं किं कुर्मश्चेत् तत्र आत्मनेपदी धातूनाम् अपि परस्मैपदी धातूनां तयोः मध्ये कः भेदः इति. तत्र कोष्टकमस्ति, तत् पुटसङ्ख्या 47 मध्ये. तत्र किञ्चित् तत् पठामः. तदनन्तरं वयं गृहपाठम् इत्यादि सर्वं पश्यामः. अस्तु, तत्र रघुपतिमहोदय, तत्र पेज् 47 पुटसङ्ख्या 47 मध्ये अवधेयं यत् अस्ति
महोदय, क्रियापदस्य मूलं धातुः यथा पठति इत्यस्य क्रियापदस्य मूलं पट् इति धातुः. धातवः त्रिविधाः सन्ति, परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः च इति. पट्, लिख्, क्रीड्, मिल्, गम् इत्यादयः धातवः परस्मैपदिनः. वन्द्, एद्, लब्, ईक्ष्, लज् इत्यादयः धातवः आत्मनेपदिनः. परस्मैपदीनां धातूनां लट्लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ति इति श्रूयते. यथा क्रियापदस्य मूलः अस्ति धातुः. यथा पठति क्रियापदम् अस्ति, क्रियापदं तस्य मूल अस्ति पट् इति धातुः. धातवः त्रिविधाः सन्ति. प्रथमः परस्मैपदी धातु, द्वितीय अस्ति आत्मनेपदी धातु, तिस्र तृतीयम् अस्ति उभयपदिनः इति, उभयपदी धातु इति. अत्र परस्मैपदिनः परस्मैपदी धातवः अत्र अत्र अस्ति पट्, लिक्, क्रीड्, मिल् इत्यादि परस्मैपदी धातु. वन्द्, एत्, लब्, ईक्ष्, लज् इत्यादि आत्मनेपदी धातुः. परस्मैपदी धातवः परस्मैपदिनः परस्मैपदिधातोः अन्ते ति इति श्रूयते. यथा पठति, लिखति. आत्मनेपदिधातूनां लट्लकारस्य प्रथमपुरुष एकवचनेषु के इति श्रूयते. यथा वीक्षते, लज्जते इति. उभयपदीनां धातूनां अन्ते ति अपि श्रूयते. ति अपि उपयोजितुं शक्यते. ते अपि यदा आत्मनेपदिरूपं युज्यते उपयोगं करोति चेत् ते इति तस्य
शृण्मः
इति शृण्मः अन्त शृण्मः यथा करोति करोति कुरुते याचति याचते जानाति जानीते.
धन्यवादः महोदय, धन्यवादः. अस्तु, अतः सर्वे अवगच्छन्ति इति मन्ये. किञ्चित् तथैव पुनरेकवारं पठामः. क्रियापदस्य मूलं धातुः, नामपदमस्ति तस्य मूलं नामपदस्य मूलं तस्य नाम किम् अस्ति नामपदस्य? प्रातिपदिकं. अस्तु, सर्वे कोऽपि पदमस्ति तत् क्रियापदं रूपं भवति अथवा नामपदरूपं भवति. तत्र क्रियापदम् अस्ति चेत् तस्य मूलं धातुः, नामपदम् अस्ति चेत् तस्य मूलं प्रातिपदिकम् इति. पठति इति धातु इति तद् पट् इति धातु तस्मात् आगच्छति. पट् इति धातुः अस्ति, तस्य अनेकरूपाणि सन्ति. लट्लकारः इत्युक्ते वर्तमानकाले अथवा भूतकाले भविष्यत्काले. पट् इति केवलम् एकमेव धातु, किन्तु तस्य अनेकानि रूपाणि सन्ति. रूपं कीदृशरूपाणि सन्ति? तत्र वर्तमानकालरूपम् अस्ति, तदनन्तरं मध्यमपुरुषरूपम् अस्ति, पठसि इति अस्ति, प्रथमपुरुष पठति इति अस्ति, तदनन्तरम् उत्तमपुरुष पठामि इति अस्ति, तदनन्तरं वचनभेदात् अपि पठामि पठावः पठामः इति. तत्र अनेकानि रूपाणि सन्ति, किन्तु सर्वाणि रूपाणि क्रिया पठति इति क्रियापदस्य सर्वाणि रूपाणि पट् इति धातुतः आगच्छन्ति. तत् धातु स्वीकृत्य वयं प्रत्याहारम् उपयुज्य एतानि रूपाणि तस्य निर्माणं कुर्मः. तदेव अस्ति यथा नामपदस्य अपि, रामः इति शब्दः अकारान्तपुल्लिङ्गरामशब्दः इति वदामः, तत्र रामशब्दः प्रातिपदिकमस्ति, किन्तु तस्य रामः रामो रामाः रामं रामो रामान् इति सर्वं सर्वे वदामः खलु, तत्सर्वं रामपदस्य अनेकानि रूपाणि, किन्तु तत्र प्रातिपदिकम् अस्ति राम अकारान्तपुल्लिङ्गशब्दः इति. तादृशक्रियापदस्य अपि मूलमस्ति धातु इति. धातव अत्र नामपदस्य वयम् अकारान्त इति अकारान्त पुल्लिङ्ग नामपदं वा प्रातिपदिकं वा स्त्रीलिङ्गम् अथवा नपुंसकलिङ्गम् इति प्रातिपदिकस्य त्रिविधम् अस्ति, अत्र त्रैविध्यम् अस्ति. तादृश अत्र अपि भवति, धातवः त्रिविधाः सन्ति, धातूनां त्रैविध्यम् अस्ति. किम् इत्युक्ते परस्मैपदिनः धातवः, आत्मनेपदिनः धातवः, उभयपदिनः धातवः इति. परस्मैपदी धातवः वयं तु दृष्टवन्तः एव, पठति लिखति क्रीडति मिलति गच्छति सर्वं वयं दृष्टवन्तः. परस्मैपदिनः धातवः वयं जानीमः. इदानीं यत् कुर्मः तदेव आत्मनिपदिनः धातवः. तत्र वन्दते इति, एदते लभते ईक्षते लज्जते इत्यादयः तदेव आत्मनिपदिनः धातवः. तत्र रूपभेदः किम् अस्ति? परस्मैपदिनः धातवः तत्र अन्ते ति इति दृश्यते, किन्तु आत्मनेपदीनां धातूनां प्रथमपुरुष एकवचनरूपस्य अन्ते ते इति श्रूयते, वीक्षते लज्जते कम्पते इति. तत्र कानिच केचन धातवः सन्ति, ते तु तेषां रूपः परस्मैपदीरूपम् अस्ति अपि आत्मनेपदीरूपम् अपि अस्ति. तादृशधातवः धातु तस्य नामकरणमस्ति उभयपदी धातु इति. उभयपदिधातुः अस्ति चेत् तस्य परस्मैपदीरूपमपि अस्ति आत्मनेपदीरूपमपि अस्ति. यथा करोति, कृ धातुः तस्य परस्मैपदीरूपमस्ति करोति इति, आत्मनेपदीरूपमस्ति कुरुते इति. याच् इति धातुः तदपि उभयपदिधातु, याचति इति परस्मैपदीरूपं, याचते इति आत्मनेपदीरूपं, तादृश अस्ति. अस्तु, अत्र रामनाथ महोदय, अत्र प्रथम यत् अस्ति क्रियापदस्य मूलं धातु इति यत् अस्ति, तत्र ति इति श्रूयते, प्रथमपरिच्छेदः, तस्मिन् विषये यत् अवगतं किञ्चित् वदतु महोदय.
पश्यति पदं वा?
न न, क्रियापदस्य मूलं धातुः यत् वयं पठितवन्तः तदेव, किञ्चित् किञ्चित् एकवारं वदतु स्वशब्दैः.
क्रियापदस्य मूलं धातु,
धातुः
धातुः धातुः यथा पठति इत्यस्य क्रियापदस्य मूलं पट् इति धातुः. धातवः त्रिविधाः सन्ति, परस्मैपदिनः, आत्मैपदिनः, उभयपदिनः च इति. पट् लिट् क्री मिल् गम् इत्यादयः धातवः परस्मैपदिनः. वन्द् एन्द् लम् ईश् लज् इत्यादयः धातवः आत्मनेपदिनः.
इदानीं कति विधाः सन्ति धातव धातूनां?
त्रीणि विधाः
विधाः. तेषां नाम किम् अस्ति?
परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः.
उभयपदिनः, अस्तु. भानुभगिनी, तत्र परस्मैपदी धातु अस्ति चेत् वयं कथं जानीमः?
परस्मैपदी धातु
अस्ति,
परस्मै धातु 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 धातुः लट्लकारस्य प्रथमपुरुष एकवचनरूप रूपेषु पठति, लिखति, शोचति इति अन्ते ति इति श्रूयते.
समीचीनं भगिनि, समीचीनं समीचीनं, धन्यवादः रामनाथमहोदय, धन्यवादः. अस्तु, सरला भगिनी वदति वा अद्य, अथवा केवलं श्रूयते वा अद्य? अस्तु, आत्मनेपदी धातूना धातु इति कथं जानीमः वयम्?
आत्मनेपदी धातूनां यदि क्रियापदस्य अन्ते ते लट्लकारस्य प्रथमपुरुष एकवचने दृश्यते आत्मनेपदी धातूनां क्रियापदम् अस्ति, वीक्षते, लज्जते, एधते.
समीचीनं भगिनि, समीचीनम्. अस्तु, अतः ति इति अस्ति चेत् परस्मैपदी धातु, ते इति अन्ते अस्ति चेत् आत्मनेपदी धातु इति अस्ति. तत्र रूपभेदः तावदेव इति चिन्तितुं शक्नुमः. अन्य कोऽपि अस्ति वा? अस्तु, यद् रमजयन्ति भगिनी खलु? आमामां, एकनिमिष पृच्छामि. अस्तु, तत्र उभयपदी धातु धातु इति अस्ति इति कथं तत् ज्ञातुं शक्नुमः भगिनि? रमजयन्ति भगिनी,
रमा भगिनी,
रमा भगिनी, रमजयन्ति भगिनी.
अस्तु महोदय,
तत्र यदि यदि क्रियापदं पश्यामः तत्र वयं ज्ञातुं शक्नुमः वा तत् उभयपदी धातु अस्ति इति?
न महोदय.
समीचीनं 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 भगिनि. किञ्चित् क्लिष्टः आसीत् प्रश्नः, किन्तु भवती सम्यक्तया उक्तवती. सत्यं, परस्मैपदी धातु अस्ति न वा इति वयं ज्ञातुं शक्नुमः, आत्मनेपदी धातु अपि अस्ति न वा इति वयं वक्तुं शक्नुमः, किन्तु उभयपदि धातुः केवलम् अनेकवारं दृष्ट्वा दृष्ट्वा एव वयं वक्तुं शक्नुमः. यदि आत्मनेपदि परस्मैपदिरूपं पश्यामः, आत्मनेपदिरूपम् अपि अस्ति इति जानीमः चेत् वयं वक्तुं शक्नुमः तत् उभयपदि धातुः अस्ति इति. अस्तु, अत्र केवलम् आत्मनेपदि धातुः अपि परस्मैपदि धातुः तस्य अभिज्ञानं, तस्य रेकग्निशन् तद् वयं कर्तुं शक्नुमः. तत्र टी, हा तत् टी अस्ति चेत् परस्मैपदि धातु, ते अस्ति चेत् आत्मनेपदि धातु इति. अत्र धन्यवादः. अत्र भ्रातृमेलनम् इति कथायां केवलं आत्मनेपदि धातवः सन्ति अथवा परस्मैपदि धातवः अपि सन्ति तस्यां कथायाम्, एतस्यां कथायां. किं चिन्तनं? भ्रातृमेलनम् इति कथायां केवलम् आत्मनेपदि धातवः सन्ति अथवा परस्मैपदि धातवः अपि सन्ति?
आत्मनेपदि एव सन्ति महोदय. परस्मैपदि अपि अस्ति.
अस्तु, हा अन्य के चिन्तयन्ति?
परस्मैपदी अपि सन्ति, अधिकानि आत्मनेपदी सन्ति.
स्थूलक्षरैः यद्यदस्ति तत् सर्वम् आत्मनेपदि धातवः. समीचीनं. हा किन्तु परस्मैपदि धातु अपि तत्र अस्ति इति मन्ये खलु? तत्र एतेन मार्गेण गन्तुम् इच्छामि इति अस्ति.
हनुमान् पृच्छति,
हनुमान् पृच्छति,
हनुमान् वदति,
हा
वदति,
हा अस्तु
महोदय.
हा
पाण्डवाः वनवासम् आचरन्तः
भगिनी, सम्यक्तया न श्रूयते. सरला भगिनी, किञ्चित् उच्चैः वदतु.
न श्रूयते महोदय.
इदानीं श्रूयते, वदतु. कः उक्तवती?
अहं रमाजयन्ती महोदय.
ओ अस्तु अस्तु अस्तु, रमाजयन्ती भगिनी, अस्तु किञ्चित् उच्चैः वदतु.
एकः प्रश्नः अस्ति. पाण्डवाः वनवासम् आचरन्तः, आचरन्तः बहुवचनमस्ति, तदापि आचरन्तः परस्मैपदी सम्यक् अस्ति वा?
आचरन्तः क्रियापदम् इव अस्ति, किन्तु तद् शत्रन्तरूपम् इति वदामः. आचरन् आचरन् इति भवान् शब्दवत् अस्ति. आचरन् आचरन्तौ आचरन्तः इति. अहं गच्छन् खादामि इति अस्ति खलु, हा तादृशरूपम् अस्ति. तत् पुल्लिङ्गे पुल्लिङ्गे अस्ति, बहुवचनरूपम्. क्रियापदात् परस्मैक्रियापदम् आचरन्ति इति क्रियापदम् अस्ति, किन्तु आचरन्ति अपि आगच्छन्ति, तत्र क्रियाद्वयं भवति.
अहं जानामि,
किन्तु परस्मैपदी धातु परस्मैपदी धातु एव अस्ति भगिनि. तत्तु सत्यं.
धन्यवादः.
तत्तु सत्यं सत्यं. हा विहरन्तः तत्रापि परस्मैपदि धातुः एव अस्ति तत्रापि. हा अस्तु, समीचीनं. हा इदानीं
महोदय एकः प्रश्नः अस्ति. उभयपदीनां धातु किमर्थम् अस्ति?
तत्र किमर्थम् अस्ति इति तत्र किम् अस्ति भगिनी इत्युक्ते, तत्र वयम् अग्रे गत्वा एतत् पश्यामः. तत्र कर्तरीप्रयोगः, अहं किमपि करोमि, मया किमपि, तत्र सर्वत्र आत्मनेपदि धातवः एव भवन्ति, आत्मनेपदिरूपमेव अस्ति तत्र. अन्यदस्ति तत्र भाषा तादृश आसीत्, एतत् कोऽपि न चिन्तितवान् अथवा चिन्तितवती एतत् एतत् एव रूपं भवितव्यम् इति कोऽपि न चिन्तितवान् अथवा चिन्तितवती.
आं महोदय,
एतत् क्रियापदस्य एतद् रूपम् उपयोगं कृतवन्तः. तदनन्तरं पाणिनिः आगतवान्, सः दृष्ट्वा कः नियमाः सन्ति भाषायां. सः नूतननियमः न स्वीकृतवान्, केवलं सः दृष्टवान् के नियमाः सन्ति, तस्य निर्माणपदस्य निर्माणं कथं भवति, तत् सर्वं सः लिखितवान्. किन्तु तत्र एतद् नास्ति अस्य क्रियापदस्य केव दृष्ट्वा तद् उभयपदी दातु, तत् तादृश किमपि नास्ति. हा, केवलं यत् आङ्ग्लभाषायां वदामि, वाट् वास् इन् प्राक्टिस्, we just see that, that's all, but we don't try to introduce new words. Atra tadra tavateva tat samichinam
bhavam.
Ha, asto tatra kru dhatu tatra kechana niyamaha santi siddhanta kaumudi iti pustake kinchit asti prayasha agrima varge atva tasya anantaram aham kinchit vadami tatra उदाहरणानि अग्रे अग्रे वदामि. अद्य न, किन्तु अग्रिमसप्ताहे वा तस्य अनन्तरम्. अस्तु, तत्र प्रथम अभ्यासः कर्तुं किमपि क्लेशः आसीत् वा स्थूलाक्षरैः मुद्रितानि पदानि अत्र लिखत्वा इति? तत्र किमपि क्लेशः नासीत् इति मन्ये. तत्र एतद् सरल अभ्यासः, द्वितीय अभ्यासः तु सरलः एव अस्ति, तदपि एकवारं कुर्मः. तत्र पश्यति इति किमस्ति, परस्मै वा आत्मनेपदी वा?
नेपदी.
परस्मैपदी. लज्जते?
आत्मनेपदी.
हा, कामयते?
आत्मनेपदी.
हा, तिष्ठति?
परस्मै.
आत्मनेपदी. हा, वर्तते? पलायते? स्मरति? परस्मैपदी. अस्तु, तादृश अग्रे अपि कर्तुं शक्नुमः. अत्र एकवारम् अद्य एतत् कुर्मः. तत्र यत् रूपमस्ति तद् एकवारं पश्यामः. तत्र हरिमहोदय अग्रिमपुटे पेज् 48 तत्र ए धातोः लट् लकारे रूपाणि एवं भवन्ति इति, तत् कोष्टकं कृपया एकवारं पठतु.
एद् धातोः लट्लकारे रूपाणि एवं भवन्ति. प्रथमपुरुषः एधते, एधेते, एधन्ते. मध्यमपुरुषः एधसे, एधेथे, एधद्वे. उत्तमपुरुषः एधे, एधावहे, एधामहे.
अस्तु, तत्र पठति, पठतः, पठन्ति इति तादृश एदते, एधेते, एदन्ते, एदसे, एधेथे, एदध्वे, एधे, एदावहे, एदामहे. तत्र प्रथमपुरुषरूपमस्ति, मध्यमपुरुषरूपमस्ति, उत्तमपुरुषरूपमस्ति, तत्र कानि रूपाणि सुलभानि सन्ति मनसि स्थापयितुम्? प्रथमपुरुषरूपं सुलभम् अस्ति वा, मध्यमपुरुषरूपं सुलभम् अस्ति वा, अथवा उत्तमपुरुषरूपं सुलभम् अस्ति वा? अत्र
प्रथमपुरुषः
वा? अस्तु, अस्तु, इदानीं वयं किं कुर्मः चेत् वयम् एतत् करपत्रम् अहं डी प्रेषितवान् तत् सर्वे पश्यामः करपत्रं सर्वे प्राप्तवन्तः वा
करपत्रम्
ईमेल्
तत्र लिङ्क् ईमेल् मध्ये अहं लिङ्क् प्रेषितवान् तत् वि शेल् यूस् द फालोयिङ्ग् करपत्रम् इति द्वितीय अस्तु तत्र रमाजयन्ती भगिनी भवती करपत्रम् अस्ति वा भवत्याः समीपे
अस्ति महोदय
अस्तु तत्र
महोदय
अस्तु तत्र तत्र वर्तते इति अस्ति तत्र कोष्टकम् अस्ति वर्तते वर्तेते वर्तन्ते इति अस्ति
आं महोदय
तत् एकवारं पठित्वा भगिनी मोदते इति तस्य रूपाणि वदतु भगिनि
आं महोदय प्रथमपुरुषः एकवचनं वर्तते प्रथमपुरुषः द्विवचनं वर्तेते प्रथमपुरुषः बहुवचनं वर्तन्ते मध्यमपुरुषः एकवचनं वर्तते मध्यमपुरुषः द्विवचनं वर्तेथे मध्यमपुरुषः बहुवचनं वर्धत्वे उत्तमपुरुषः एकवचनं वर्ते उत्तमपुरुषः द्विवचनं वर्तावहे उत्तमपुरुषः बहुवचनं वर्तामहे
इदानीं केवलं वर्तते वर्तेते वर्तन्ते इति तादृश मोदते इति कृपया करोतु भगिनि
मोदते मोदेते मोदन्ते मोदसे मोदेथे मोदत्वे
मोदद्वे
मोदे मोदे मोदामहे मोदावहे मोदे मोदावहे मोदामहे
समीचीनं भगिनि अस्तु सरला भगिनि अग्रिमं ब्रियते इति
महोदय एकः प्रश्नमस्ति
वदतु महोदय
मोदते मध्यमपुरुषः बहुवचनं मोदद्वे वा मोदद्वे वा
मोदद्वे तत्र प्रथमदकारः अल्पप्राणः द्वितीयदकारः महाप्राणः मोदद्वे मोद् इति धातुः अस्ति तद् तिष्ठति एव मोद् द्वे इति द्वे अन्ते आगच्छति
मोद् भवति प्रथमे गणे
मोद्
धातु
धन्यवादः भगिनि अस्तु इदानीं तत्र म्रियते इति
म्रियते म्रियते म्रियन्ते म्रियसे म्रियेथे म्रियध्वे म्रिये म्रियावहे म्रियामहे
धन्यवादः इदानीं रामनाथ महोदय वर्धते इति
वर्धते वर्धेते वर्धन्ते वर्धसे वर्धेते वर्धद्वे वर्धे वर्धावहे वर्धामहे
रघुपति आचार्य महोदय तत्र ईहते करपत्रे करपत्रे यत् अत्र करपत्रमस्ति खलु महोदय तत्र चतुर्थक्रियापदम् ईहते
ईहते ईहते ईहेते ईहन्ते ईहसे ईहेथे ईहध्वे ईते ईतावहे ईतामहे समीचीनं वा ईहे सारि ईहे ईहे ईहावहे ईहामहे
इदानीं समीचीनं महोदय
तस्य अर्थं किमस्ति
कोऽपि जानाति वा ईह इति
ह
अहं जानामि ईते इति गत्यार्थकम् अस्ति, ईहते न जानामि.
विश्यति इच्छति इति अर्थे, ईहते अटेम्प्ट् अस्ति, इच्छति अपि अस्ति, विश् इति अस्ति. ईहते तत्र भानु भगिनी इदानीं शोभते इति
शोभते शोभेते शोभन्ते शोभते शोभेते शोभद्वे शोभे शोभावहे शोभामहे.
हा समीचीनम्, सर्वे उक्तवन्तः इति मन्ये. हरिमहोदय भवान् न कृतवन्तः खलु, अस्तु शङ्कते इति. अग्रिमम्.
शङ्कते शङ्केते शङ्कन्ते शङ्कसे शङ्केथे शङ्कद्वे शङ्के शङ्कावहे शङ्कामहे.
हा समीचीनम्, अस्तु. हा इदानीं किं कुर्मः, खिद्यते इति अस्ति तत्र. रमाजयन्ती भगिनी इदानीं खिद्यते, भवती एतत् करोतु, तत्र सः इति स्वीकृत्य सः खिद्यते, सः तौ ते इति, तदनन्तरं त्वं युवां यूयम् अहम् आवां वयम् इति तत् उपयुज्य वदति वा.
सः खिद्यते, ते खिद्येते.
अस्तु अस्तु, सा इति, सा इति स्वीकरोतु. अस्तु, सा खिद्यते,
सा खिद्यते, ते खिद्येते, ताः खिद्यन्ते. त्वं सिद्धसे, युवा सिद्धेथे, यूयं सिद्धद्वे,
खिद्यद्वे,
खिद्धद्वे. अहं 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 किद्धे
अहं
किद्धे आवां खिद्धावहे
खिद्यावहे
खिद्यावहे वयं खिद्धामहे.
खिद्या ग्या ग्या इति यकारः अस्ति
खिद्यामहे.
हा समीचीनं समीचीनं भगिनि, हा समीचीनं, धन्यवादः. हा अस्तु, रामरत्नमहोदय अग्रिमं सः सा इति उपयुज्य राजते इति.
हा सा राजते, ते राजन्ते, सारि राजेते, ताः राजन्ते, त्वं राजस्य, युवां राज्य राजेते, यूयं राजन् राजद्वे, अहं राजे, आवां राजावहे, वयं राजामहे.
हा समीचीनं महोदय, अस्तु. सरला भगिनी इदानीं प्रकाशते, सूर्यः इति स्वीकरोतु.
सूर्यः प्रकाशते, सूर्यौ प्रकाशेते, सूर्याः प्रकाशन्ते, त्वं प्रकाशते, युवां प्रकाशेते, यूयं प्रकाशते, अहं प्रकाशे, तावां प्रकाश प्रकाशावहे, वयं प्रकाशामहे.
हा समीचीनं भगिनी, धन्यवादः. अस्तु भानु भगिनी ऊहते इति, रामः ऊहते इति.
रामः ऊहते, रामः ऊहते, रामौ ऊहेते, रामाः ऊहन्ते, त्वं त्वं ऊहसे, युवां ऊहेते, वय यूयं यूयं ऊहद्वे
समीचीनं भगिनि
अहम् ऊहे आवाम् ऊहामहे वयम् आवाम् ऊहावहे वयम् ऊहामहे
समीचीनं भगिनि समीचीनं इदानीं रघुपति आचार्य महोदय सीता इति सीता लज्जते
सीता लज्जते सीते लज्जेते सीताः लज्जन्ते त्वं लज्जसे युवां लज्जेते यूयं लज्जध्वे अहं लज्जे आवां लज्जावहे वयं लज्जामहे
समीचीनं महोदय अस्तु हरि महोदय लता कम्पते
लते कम्पेते लताः कम्पन्ते त्वं कम्पसे युवां कम्पथे कम्पेथे यूयं कम्पध्वे अहं कम्पे आवां कम्पावहे वयं कम्पामहे
समीचीनम् अस्तु इदानीं तत्र सर्वे अवगतवन्तः किञ्चित् अभ्यासः अपि जातम् इति मन्ये अस्तु तत्र अस्तु इदानीं किञ्चित् नूतन अभ्यासं तत्र एव कुर्मः तत्र सरला भगिनी तत्र प्रार्थयद्वे इति पुरुषः वचनं प्रार्थयद्वे
मध्यमपुरुष बहुवचन
बहुवचनं अपि पुरुषः
पुरुष मध्यमपुरुष
मध्यपुरुष समीचीनं समीचीनम् अस्तु धन्यवादः रामनाथमहोदय जायावहे
उत्तमपुरुष द्विवचनं
समीचीनम् अस्तु भानुभगिनी लभेत्थे
मध्यमपुरुष द्विवचनं
द्विवचनं समीचीनं भगिनि अस्तु रघुपतिमहोदय शोभन्ते अस्तु हरिमहोदय शोभन्ते
प्रथमपुरुषः बहुवचनं
बहुवचनम् अस्तु समीचीनं रघुपतिमहोदय तत्र सहद्वे
मध्यमपुरुष बहुवचनं
बहुवचनं समीचीनम् अस्तु इदानीं तत्र किञ्चित् रूपस्य रूपं दृष्ट्वा किं किम् अपि वक्तुं शक्नुमः अपि यदि धातु अथवा प्रथमपुरुष एकवचनरूपं दत्तमस्ति चेत् तस्य अन्यरूपाणि कर्तुमपि शक्नुमः वयम् अस्तु इदानीं तत्र अधोभागे यत् यत् यानि वाक्यानि सन्ति तत् किञ्चित् परिशीलयामः अस्तु अत्र भानुभगिनी प्रथमम्
आं महोदय
पक्षी इति
पक्षी आकाशे डयते
तत्र अवगच्छति वा किम् अस्ति इति पक्षी इति
पक्षी इति बहुवचनं
न पक्षी इति एकवचनम् एव अस्ति किमर्थं
पक्षी
कथं जानीमः तत् एकवचनम् इति बहुवचनं न इति
डयते
समीचीनं डयते इति एकवचनम् अस्ति अस्तु पक्षी आकाशे डयते इति किम् अस्ति इति अवगच्छति वा भगिनि डयते डयते इत्युक्ते फ्लै
फ्लै
तदेव करोति समीचीनं भगिनि पक्षी तदेव करोति खलु आकाशे तत् किं करोति पक्षी सः किं करोति तत् पक्षी डयते तत्र तत्र पक्षी तस्य अन्य कोऽपि समानार्थकपदं कोऽपि जानाति वा पक्षी इति शब्दस्य
खगः
खगः खम् इति आकाशः खम् तस्मिन् तद् गच्छति इति कृत्वा खगः इति नाम तस्य नाम अस्ति पक्षी इति खगः अस्तु खे तत्र ख इति तस्य सप्तमी खे इति अस्ति इति मन्ये खे गच्छति इति किमपि अस्ति तत्र किन्तु आकाशे गच्छति इति कृत्वा तस्य नाम अस्ति खगः इति अस्तु द्वितीयम्
अम्बर अपि आकाशस्य अम्बर अपि अस्ति
अम्बरः इत्युक्ते अम्बरः इत्युक्ते आकाशः नास्ति इति मन्ये भगिनि अम्बरः इत्युक्ते क्लोत्स्
अम्बर आकाश अपि अस्ति
आकाश अपि
पञ्चतत्त्व
अहं केवलं यत् दिगम्बर इति पदमस्ति खलु तत्र तदेव अहं जानीमि दिगम्बर इति
तस्य वस्त्राणि आकाश एव अस्ति
तथा
अम्बरम् इति क्लोत् अथवा क्लोत्स् इति चिन्तितवान्
चिदम्बरम् इत्युक्ते महोदय चिदम्बरम् इत्युक्ते चिदाकाश रूपम् अस्ति
वा
ओ अस्तु 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 चिदा च तत् प्रायशः समीचीनमेव अस्ति भगिनि भानुभगिनी धन्यवादः तत् चिदम्बरम् अपि चिदाकाशात् तयोः मध्ये
अस्ति महोदय दृष्टवान् अहमपि दृष्टवान् स्पोकन् संस्कृत् मध्ये स्कै इति
स्कै इति अस्तु अस्तु धन्यवादः धन्यवादः
आकाशे सप्तमी विभक्ति वा
आकाशे इति सप्तमीभक्ति सत्यम् आकाशे डयते सत्यं
विभक्तिः ओन्नमे क्रियते
अस्तु विभक्तिः सर्वं वयम् अग्रे गत्वा जानीमः चिन्ता मास्तु भगिनि पानुभगिनी अस्तु अग्रे रमजयन्ति भगिनि एषः दूरवाण्या इति
एषः दूरवाण्या भाषते
अर्थम् अवगच्छति वा
प्रथमपुरुषः एकवचनं
समीचीनम् अस्तु तत् अर्थं तत् वाक्यम् अवगच्छति खलु भगिनि
अस्तु महोदय
तत्र दूरवाण्या इति रूपं किम् अस्ति कोऽपि वदति वा
तृतीयविभक्ति
तृतीयविभक्ति माध्यमं समीचीनं कुञ्चिकया इति लतया इति तादृश तृतीयविभक्ति दूरवाणी स्त्रीलिङ्गपदं स्त्रीलिङ्गपदं दूरवाणी दूरवाण्या समीचीनं नदी नद्या समीचीनम् अस्तु अग्रिमं रामनाथ महोदय अग्रिमम्
पुस्तकम् उत्पीठिकायां विद्यते
तत्र एतदपि कुर्मः तद् अवगमनं यदि अवगच्छन्ति चेत् तत्र परस्मैपदी क्रियापदम् उपयुज्य तदेव वाक्यं वदतु पुस्तकम् उत्पीठिकायां
उत्पीठिकायां श्रीलिङ्गं सप्तमी
समीचीनम् इदानीं विद्यते इति तस्मिन् स्थाने परस्मैपदी क्रियापदं किमपि वक्तुं शक्नुमः वा
प्रथमपुरुषे एकवचनं विद्यते अर्थात्
अस्ति अस्ति इति अर्थे
दृश्यते दृश्यते समानार्थपदं वा
विद्यते अर्थात्
तत्र विद्यमान अस्ति, किन्तु अत्र प्रायशः अस् इति धातु अस्ति इति प्रायशः समीचीनम् इति मन्ये महोदय. किन्तु विद्यमान इति तद् विद्यमानम् अस्ति चेत् दृश्यते एव, तत् प्रायशः तत् समीचीनं भवति तत्र विद्यमान. किन्तु तत्र केवलं विद्यते इति अस्ति इति कृत्वा अस्ति इति तावत् समीचीनम् इति मन्ये महोदय. हा तत्र विद्यते अस्तु. अग्रिमं रघुपतिमहोदय अग्रिमं गृहिणी
एकं महोदय गृहिणी वातायनात् वीक्षते. गृहिणी वातायनात् पश्यति
पश्यति पश्यति समीचीनं. हा तत्र वातायनम् इति पदस्य
हा वातायनात् पञ्चमी वातायनात् पञ्चमी विभक्ति
पञ्चमी पञ्चमी वातायनात् इति पञ्चमी वातायनम् इति वातः इत्युक्ते किं कोऽपि जानाति वा वातः
वात वायुः
वायुः
वायन इति
येन वायु अन्ते आगच्छति तत् तदेव वातायनम्. येन वायु अन्ते आगच्छति तद् वातायनं तदेव विण्डो इति. अस्तु गृहिणी वातायनात् पश्यति इति अस्तु. अग्रे भानुभगिनी आकाशे इति.
आकाशे सूर्यः प्रकाशते. सूर्यः एकवचनं प्रथमपुरुषः. आकाशे सप्तमी विभक्ति.
समीचीनं भगिनि. प्रकाशते इति अर्थः
शैनिङ्ग् अर्थः
प्रकाशते शैन् इति. आकाशे सूर्यः प्रकाशते
प्रकाशते.
सूर्यः प्रथमपुरुषः न आगच्छति.
सत्यं महोदय. अस्तु इदानीं हरि महोदय अग्रिमं शिशु
महोदय. योतते ईक्वलण्ट् शब्दः न
किं भगिनि?
प्रकाशते द्योतते
द्योतते द्युति इति अहं शैन् इति जानामि.
द्योतते इत्युक्ते विद्यमान
शैन्. आमामां द्योतते तदपि शैन् एव अस्ति भगिनि. सत्यं
द्युति
द्युति इति द्युति इति शैनिङ्ग् प्रकाशते द्योतते
तदपि
किं भगिनि सरल भगिनि किं
ज्वलति
ज्वलति ज्वलति ज्वलति अपि समीचीनं. प्रकाशते अस्तु.
ज्वलति प्रकाशते ज्वलति इत्युक्ते ज्वाला ज्वाला अपि इत्युक्ते अर्थम्
अर्थाः सन्ति.
तत् तत्र शैन् अपि अस्ति बर्न् अपि अस्ति भगिनि. ग्लो अपि अस्ति शैन् अपि अस्ति ज्वलति इति. किन्तु प्रकाशते तत्र केवलं शैन् एव अस्ति.
लैट् प्रकाशमेव प्रकाशमस्ति
तत्र प्रकाशमेव ज्वल ज्वल किन्तु ज्वल ज्वलति अपि समीचीनं. तत्र तत्र अर्थद्वयम् अस्ति.
महोदय प्रकाशति प्रकाशति सम्यक् पदमस्ति वा?
प्रकाशते
प्रकाशति
न न प्रकाशते प्रकाशते एव समीचीनमस्ति भगिनि. अत्र
प्रकाशते आत्मनेपदि केन् बि यूस् प्रकाशति एस् परस्मैपदि. आकाशे सूर्यः प्रकाशति
प्रकाशति इति
उभयपदि नास्ति केवलं
प्रकाशति इति. तत्र तत्र प्रकाशति इति परस्मैपदिरूपम् अस्ति वा तस्य? प्रकाशति इति नास्ति इति मन्ये भगिनि. तत्र वयं न यदि पूर्वं दृष्टवन्तः तस्मिन् समये एव वयं वक्तुं शक्नुमः अस्तु अस्तु तद् उभयपदी धातु अस्ति इति, नो चेत् न वक्तुं शक्नुमः. अत्र अहं चिन्तयामि पर प्रकाशति इति रूपं नास्ति इति, किन्तु प्रकाशति इति अस्ति.
प्रकाशयति अस्ति निच् प्रकाशयति प्रकाशते
प्रकाशते एव अस्ति इति मन्ये भगिनी. प्रकाशयति तद् भिन्नम् अस्ति,
भिन्नं
हा, किन्तु प्रकाशते तस् तद् उभयपदी नास्ति इति मन्ये भगिनि.
अस्तु महोदय, नो प्राब्लम्.
हा अस्तु, हा हरि महोदय. अग्रिमं शिशुः.
शिशुः एधते.
वाक्यम् आगच्छति वा? शिशुः
एधते रुदते वा?
रुदते वर्धते, वर्धते इति ग्रोस् ग्रोस्
ग्रो वर्धते
वर्धते इति. शिशुः वर्धते, शिशुः एधते ग्रोस् इति अर्थे. प्रायशः ए धातु तदेव वयं पुस्तके अपि अस्ति ए धातु, तद् गम् इति अर्थे अपि अस्ति, अपि वर्धते इति अर्थे अपि अस्ति इति मन्ये.
गच्छते
गच्छति अपि अस्ति, अत्र वर्धनम् अपि अस्ति इति. अस्तु
आम् महोदय.
हा अग्रे सरला भगिनी, अग्रिम भक्तः.
भक्तः देवं वन्दते. भक्तकर्तृपदम् एकवचनं, प्रथमाविभक्ति देवं, द्वितीयाविभक्ति एकवचनं, वन्दते प्रथमपुरुष एकवचनं, आत्मनेपदे तस्य पर्यायशब्द भवति नमति, नमति परस्मैपदे. भक्तः देवं देवं नमति, भक्तः देवं वन्दते.
वन्दते, समीचीनं भगिनि. हा इदानीं रामनाथ महोदय अग्रिमं तत्र. चोरः इति,
चोरः आरक्षकात् पलायते. चोरः प्रथमे प्रथम एकवचनं, आरक्षकात् पञ्चमी विभक्ति एकवचनं, पलायते प्रथमपुरुषः एकवचनं.
तत्र वाक्यम् अवगच्छति वा?
अवगच्छति. पलायते मीन्स् एस्केपिङ्ग्,
रन्स् अवे फ्रम् इति. आरक्षकात् चोरः आरक्षकात् पलायते. सः केवलं चोरः धावति इति न खलु? चोरः धावति इति अर्थे
दूरं धावति.
दूरं धावति, अस्तु सत्यं. तत् केवलं धावति इति नास्ति खलु, सः आरक्षकात् पलायते, एस्केप् इति, एस्केप् केवलं रन् इति न, आरक्षकात् पलायते इति. अस्तु, हा रघुपतिमहोदय अग्रिमं.
शिष्यः गुरुं सेवते, अत्र शिष्यः एकवचन, गुरुं गुरुं द्वितीयविभक्ति, सेवते 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 पर्यायशब्द, सेवते सेवां करोति,
सेवां करोति इति स्वीकुर्मः. अस्तु,
शिष्यः गुरुं
सेवते,
शिष्यः गुरोः सेवां करोति.
हा गुरोः सेवा, समीचीनं.
हा प्रकाशते मूलधातु किं
किं महोदय?
प्रकाशते मूलधातुरूपं किं धातु वा?
तत्र मूल तस्य धातु प्रकाश
पाश
प्रा इति उपसर्गः काश् इति प्रायशः अस्ति. हा, तस्य उपसर्गस्य विषये इदानीं वयं किमपि न उक्तः, किन्तु हा प्रायशः तद् काश् इति किमपि अस्ति इति काशते अपि शैन् एव अस्ति, किन्तु प्रकाशते तत्र उपसर्गः अस्ति, किन्तु तत्र अर्थभेदः न भवति.
भवान् पृच्छति प्रथमेपदीरूपं वा अस्ति वा, अहं दृष्टवन्तः अष्टाध्यायी दास्यामि न आत्मनेपदीरूपमेव
आत्मनेपदीरूपमेव अस्ति. अस्तु, धन्यवादः महोदय. अस्तु, हा धन्यवादः. अस्तु, अत्र कः उक्तवान् अस्ति शेवते, हा इदानीं कः हा तद् वयं कृतवन्तः. अस्तु, इदानीं रमजयन्ती भगिनी अग्रिमं याचकः
भुङ्क्ते
तत्र प्रायशः ककारस्य अधोभागे तत् एकं पङ्क्ति हा लैन् आवश्यकमासीत्. हा भुङ्क्ते
भुङ्क्ते याचकः भुङ्क्ते प्रथमपुरुषः एकवचनं आत्मनेपदि याचकः खादति.
हा समीचीनं, तावदेव अस्ति भगिनि. हा याचकः, याचकः इत्युक्ते
बेग्गर्,
भिक्षुकः, भिक्षुकः यः याचति सः याचकः,
भिक्षुकः खादति
खादति. समीचीनं भगिनि, समीचीनम्. अस्तु, हा इदानीं हरिमहोदय अग्रिमम्
माता पाकशालायाम् आस्ते. पाकशालायां किचन्
सप्तमीभक्ति अस्ति, पाकशाला अस्ति
सप्तमीभक्ति
आस्ते इत्युक्ते
आस्ते
अस्ति इति नास्ति
तिष्ठते
तिष्ठति माता तिष्ठति इति माता तत्र उपविशति इति अर्थे
उपविशते
उपविशति उपविशति आस्ते माता पाकशालायाम् उपविशति
उपविशति
आस्ते इत्युक्ते आत्मनेपदीरु
आस्ते इति आत्मनेपदी धातुः अस्ति क्रियापदमस्ति सिट् इति अर्थः अस्ति अस्ति इति अर्थः अपि अस्ति किन्तु उपविशति इति अर्थः एव अत्र
महोदय धातुः अस्ति अस्ति तत् उभयपदी धातुः अस्ति अस्ति आस्ते
हा 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 किन्तु हा समीचीनं भगिनि तत् समीचीनं किन्तु तत्र हा तत्र आस्ते इति तस्य तावदेव तद् तदेव अहं वक्तुम् इष्टवान् हा तत्र सिट् अस्ति अपि लै स्टे रिमेन् हा एक्सिस्ट् तदपि अस्ति हा अस् धातु उभयपदि धातु हा अस्ति समीचीनं भगिनि अस्तु अग्रिमं हा कः न उक्तवान् भानुभगिनी उक्तवती वा अस्तु अग्रिमं करोतु ब्रह्मचारी
आं महोदय ब्रह्मचारी क्षां याचते ब्रह्मचारी प्रथमपुरुष एकवचनं भिक्षां सप्तमी विभक्ति पाकशालायाम् इति
न न न भिक्षाम् इति कर्मपदम् अस्ति भिक्षा भिक्षां
भिक्षां याचते याचते इत्युक्ते
वयं दृष्टवन्तः याचकः इत्युक्ते भिक्षुकः यः याचते हा सः भिक्षुकः हा ब्रह्मचारी भिक्षां याचते
परन्तु महोदय भिक्षुकः याचते अर्थात् बेगिङ्ग् ब्रह्मचारी भिक्षां याचते अर्थात् सीकिङ्ग्
आम् तत्र भिक्षां याचते सत्यं 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 हा सत्यं समीचीनं महोदय पुनरेकवारं वदतु हा सर्वे अवगच्छन्ति रामनाथ महोदय पुनरेकवारं वदतु
भिक्षाम् अर्थात् वित् डिग्निटि
भिक्षुकः तादृश
परन्तु वित् रेस्पेक्ट् सो सीकिङ्ग्
हा सीकिङ्ग् आल्म्स् इति सत्यं महोदय सत्यम् अस्तु तदनन्तरं हरि महोदय अग्रिमं वधूः
वधूः श्वशुरात् लज्जते
हा श्वशुरः इति जानाति खलु महोदय
श्वशुरः
श्वशुरः श्वशुरात् लज्जते
श्वशुरात् सप्तमी
न न अत्र पञ्चमी अस्ति पञ्चमी
पञ्चमी लज्जते इति टु बी शै आत्मनेपदि
सत्यं सत्यं महोदय सत्यं
लज्जते
तस्य परस्मैपदीरूपं कोऽपि जानाति वा लज्जते इति केवलं तदेव वक्तुं शक्नुमः इति मन्ये समीचीनं भगिनि धन्यवादः लज्जां करोति तदेव वयं वक्तुं शक्नुमः लज्जां करोति इति अस्तु इदानीम् अग्रे तत्र सर्वं सुलभमेव अस्ति किन्तु तत् तस्य एतस्य क्रियापदस्य रूपं मनसि स्थापयितुम् एतत् अभ्यासः कुर्मः इति चिन्तितवान् अस्तु सरला भगिनी अग्रिमं
छात्रः देवं प्रार्थयते छात्रः प्रथम एकवचन प्रथमा विभक्ति कर्तृपदं देवं कर्मपदं द्वितीयापति प्रथम एकवचनं प्रार्थयतु भवति उत्तमपुरुष एकवचनं
एवं द्वितीय
आत्मनेपदे किं भवति परस्मैपदी प्रार्थयते
आत्मनेपदी
किन्तु
प्रार्थनां
प्रार्थनां करोति इति वक्तुं शक्नुमः अस्तु
अत्र प्रार्थयति भवती सकर्मकपदं सकर्मकक्रियापदम्
आम् आम् देवम् इति अस्ति
देवं
कर्मपदम् अस्ति खलु भगिनि तत्र अतः सकर्मक एव समीचीनं भगिनि सकर्मक अस्ति अस्तु अग्रे रामनाथ महोदय अग्रिमम्
एषः उद्याने मोदते एषः दकारान्त प्रथम एकवचनम् उद्याने हकारान्त तृतीय एकवचनं मोदते प्रथमपुरुष एकवचनम्
उद्याने किम् अस्ति महोदय
गार्डन्
न रूपं रूपं किम् अस्ति उद्याने
तृतीया
उद्याने सप्तमविभक्ति एकवचनम् उद्यानम् अस्ति उद्याने इति एषः उद्याने मोदते उद्यानम् इति अहं चिन्तयामि महोदय नपुंसकलिङ्गशब्द इति नपुंसकलिङ्गशब्द इति मन्ये महोदय मोदते वयं कथायामपि दृष्टवन्तः भ्रातृमेलनं कथायामपि दृष्टवन्तः मोदते इति
मोदति इति उभयपदि महोदय
न केवलं
मोदति
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 किं 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 कोऽपि उक्तवान् शिव इति तत् किं
शिवा श्लोकं वेर् देवताः मोदन्ति सो ऐ एम् थिङ्किङ्ग् मोदति इति उभयपदे
प्रायशः तत्र मोदन्ते एव अस्ति भगिनी तत्
मोदन्ते यस् यस् यु आर् रैट् या यु आर् रैट् मोदन्
मोदन्ते
सो परस्मैपदी किम् अस्ति मोदते
मोदते
आनन्दं करोति
आनन्दं करोति आनन्दं भवति आनन्दं करोति
अथवा सुखम् अनुभवन्ति आनन्दम् अनुभवन्ति
मोदम् अनुभवति
मोदं
मोदन्ते आत्मनेपदी एव रूपदातु
मूलदातु आमां मोद् इति मोदः अस्तु मोद् मोद् इति अस्ति इति शब्दः अस्ति भगिनि रमजयन्ति भगिनि मोद् इति शब्दः अस्ति
परस्मैपदे अस्ति वा
न मोद् इति नामपदम् अस्ति मोद् अतः मोदम् अथवा किमपि अस्ति तत्र दकारान्तशब्दः इति मन्ये मोद् मोद इति अस्ति हा मोद इति डिलैट् इति अस्ति मोदकम् इति तादृशरूपमस्ति खलु तत्र नामपदमस्ति किन्तु परस्मैपदीरूपं नास्ति मोदते इति शब्दस्य
अस्तु महोदय
अस्तु हरिमहोदय अग्रिमं नारिकेलवृक्षः
नारिकेलवृक्षः वर्धते वृक्ष वर्धते इति टु ग्रो
नारिकेलवृक्षः
नारिकेलवृक्षः प्रथमपुरुष प्रथमविभक्ति कर्तृपदं
कर्तृपदं समीचीनं समीचीनं वर्धते अकर्मकधातु
अकर्मकधातु
अकर्मकधातु अकर्मकक्रियापदं सत्यं अस्तु भानुभगिनी अग्रिमं
कमलं जले जायते कमलं एकवचनं जले
जलं जले आकाशे
जले
जले सप्तमविभक्ति
जायते इत्युक्ते किमर्थं
जायते इत्युक्ते भवति इति
भवति इति
प्रभवति
जननी जननी जायते
जन्दातु
जायते जनयति ओके
महोदय कमलं नपुंसकलिङ्गं वा
तत्र कर्तृपदमस्ति तत्र महोदय कमलम् इति कमलं जायते यदि कर्मपदमासीत् चेत् तत्र क्लेशः भवति तत्र अस्ति न वा वृक्षः वृक्षम् इति वृक्षं कर्मपदं भवति किन्तु वृक्षः कर्तृपदमस्ति तत्र कर्तृपदमेव अस्ति कमलम् इति अतः तद् नपुंसकलिङ्गशब्दः अस्ति
सकर्मकक्रिया जायते
जायते सकर्मक नास्ति इति अर्थे अस्ति इति अर्थे जले जले इति अस्ति महोदय तत्र जायति इति तत्र जायते
पदे केवलमस्ति
तद् अकर्मक इति मन्ये कुत्र इति वक्तुं शक्नु प्रष्टुं शक्नुमः किन्तु किम् इति न
नास्ति
कर्मपदं नास्ति अस्तु अग्रे सरला भगिनी अग्रिमम्
बालकः मिष्टान्नं कामयते बालकः कालान्तशब्द पुल्लिङ्ग एकवचनं मिष्टान्नं भवति कर्मपदम् एकवचनं मिष्टान्नम् अहं चिन्तयामि नपुंसकलिङ्गं भवति कामयते अस्ति कां धातु आत्मनिपदी प्रथमपुरुषे एकवचन परस्मैपदी भवति इच्छति बालकः मिष्टान्नम् इच्छति मिष्टान्नम् इत्युक्ते मिश्र
सकर्मकधातुः अस्ति हा कामयते इच्छति हा किम् इच्छति इति प्रष्टुं शक्नुमः समीचीनम् अस्तु रामनाथ महोदय अग्रिमं
कंसे हारः शोभते कंसे सप्तमी एकवचनं हारः प्रथम एकवचनं शोभते आत्मनेपदि प्रथमपुरुषः एकवचनं
तत्र शोभते
शैनिङ्ग्
हा तदपि अस्ति अस्तु शोभते अपि तद् तत्र शोभति हा शोभते तत् शैन् अपि अस्ति अडार्न् अपि अस्ति खलु तदपि अस्ति अस्तु कण्ठे हारः शोभते अस्तु अग्रे रघुपतिमहोदय
हा महोदय एषः बन्धोः वियोगेन खिद्यते एषः प्रथमपुरुष एकवचन बन्धोः बन्धुः इत्यस्य बन्धोः बन्धोः षष्ठीविभक्ति षष्ठीविभक्ति बन्धोः षष्ठीविभक्ति बन्धुः बन्धोः एकवचन महोदय गुरुः एकवचन षष्ठीविभक्ति वियोगेन वियोगेन तृतीया विभक्ति वियोग वियोगेन खिद्यते खिद्यते खिद्यते
दुःखं
दुःखं दुःखम् अनुभवति
एषः दुःखम् अनुभवति केन कारणेन
वियोगेन बन्धोः वियोगेन
कोऽपि बन्धुः अस्ति सः इदानीं तत्र नास्ति इति कृत्वा वियोगः अस्ति एषः अत्र अस्ति बन्धुः अन्यत्र अस्ति अतः एषः बन्धोः वियोगेन खिद्यते सर्वे अवगच्छन्ति वा अस्तु हा अग्रे भानुभगिनी अग्रे गोविन्दः
आं महोदय गोविन्दः स्पर्धते स्पर्धते इत्युक्ते
स्पर्धा अस्ति खलु
काम्पिटिशन्
स्पर्धा स्पर्धा इति जानाति वा काम्पिटिशन्
काम्पिटिशन्
गोविन्दः
गोविन्दः प्रथमपुरुष एकवचनं स्पर्धते आत्मनेपदीरूपं प्रथम परस्मैपदीरूपं
स्पर्धां करोति
हा तत् तत्र
स्पर्धं करोति और् स्पर्धां करोति स्पर्धां करोति
स्पर्धे भागं करोति
स्पर्धः स्पर्धा इति पुल्लिङ्गि अस्ति इति मन्ये
स्पर्धे
स्पर्धे यदि पुल्लिङ्गम् अस्ति चेत् स्पर्धे हा तत्र स्पर्धा अपि अस्ति भगिनि स्पर्धा द्वयमपि अस्ति इति मन्ये रूपद्वयं स्पर्धा इति अहं स्पर्धा इति स्त्रीलिङ्गे जानामि किन्तु पुल्लिङ्गे अपि अस्ति इति इदानीमेव दृष्टवान्
स्पर्धते इत्युक्ते प्रथमपुरुष वर्तते इति हि अस्ति.
किं भगिनि पुनरेकवारम्?
स्पर्धते स्पर्धते वर्तते इति हि अस्ति प्रथमपुरुष.
हा प्रथमपुरुष, हा गोविन्दः, गोविन्दः प्रथमपुरुषे एकवचनम् अस्ति खलु.
स्पर्धते स्पर्ध अनुभवति.
किं भगिनि?
गोविन्दः स्पर्धः अनुभवति अस्मैपदी.
स्पर्धे भागं वहति अथवा किन्तु किन्तु परस्मैपदीरूपं
स्पर्धे अस्ति.
स्पर्धे, हा स्पर्धे अस्ति अथवा हा तावदेव. तत्र अन्य किमपि मनसि न आगच्छति भगिनि?
स्पर्धा.
अस्तु, रमाजयन्ती भगिनी अग्रिमम्.
आं महोदय. लतायां पुष्पे जायते. लतायां पुष्पे जायते प्रथमपुरुष एकवचनम्
आत्मा.
जायते, जायते इति किम् अस्ति?
जायते इस् दट्
वचनं. वचनं किम् अस्ति? वचनं वचनं किम् अस्ति? द्विवचनं. हा किमर्थं पुष्पे वचनं किम् अस्ति?
पुष्पे
पुष्पे द्विवचनमस्ति.
पुष्पं पुष्पे
पुष्पाणि.
हा अतः पुष्पे इति द्विवचनमस्ति. क्रियापदमपि हा जायेते. लतायां पुष्पे
लतायां तृतीय
सप्तमी सप्तमी
सप्तमी ओके
सप्तमी लता अस्ति तस्यां पुष्पे जायेते.
लतायां पुष्पे सन्ति
सन्ति न सन्ति इति बहुवचनं भवति.
लतायां पुष्पे अस्ति
अस्ति द्विवचनं किम् अस्ति?
उद्भवन्ति.
हा हा किन्तु वचनं वचनं हा अस्ति इति एकवचनमस्ति, सन्ति इति बहुवचनमस्ति. तयोः मध्ये किमस्ति? स्तः. अतः लतायां पुष्पे
लतायां पुष्पे
उद्भवतः
अथवा स्तः
स्तः.
अस्तु अस्तु. हा इदानीं हा रामनाथ महोदय अग्रिमं. वृक्षाः
वृक्षाः वायुना कम्पन्ते. वृक्षाः बहुवचनं. वायुना तृतीया. कम्पन्ते प्रथमपुरुषे बहुवचनं.
तत्र कम्पन्ते इत्युक्ते शेक् इति. शेकिङ्ग् हा केन कारणेन?
वायुना
कम्पन्ते. ते वायुना कम्पन्ते इति. अस्तु रघुपतिमहोदय अग्रिमम्.
हा महोदय. शोभन्ते वृक्षे शोभन्ते वृक्षे पुष्पाणि शोभन्ते. वृक्षे सप्तमी विभक्ति पुष्पाणि सप्तमी विभक्ति एकवचन. पुष्पाणि कर्मपद अस्ति. पुष्पाणि बहुवचन.
महोदय किमर्थं
सारि
पुष्पाणि कर्मपदमस्ति?
सारि न वृक्ष पुष्पाणि शोभन्ते. हा पुष्पाणि शोभन्ते क्रिया कर्तृपद अस्ति एव पुष्पाणि पुष्पाणि शोभन्ते
पुष्पाणि कर्तृपदमेव अस्ति
कर्तृपद सारि कर्तृपद बहुवचन अस्ति अतः एतत् कारणेन शोभन्ते शोभन्ते बहुवचन
समीचीनं
सत्यकारेण ते सुखं
लभन्ते सत्कार्येण
सत्कार्येण ते सुखं लभन्ते सत्कार्येण भवति तृतीया विभक्ति कार्य इति शब्दस्य अकारान्तशब्द ते भवति प्रथमा विभक्ति बहुवचन पुल्लिङ्गशब्दः सुखं भवति कर्तृ कर्मपदं द्वितीया विभक्ति सुखम् इति नपुंसकलिङ्गं लभन्ते लब् धातु प्रथमपुरुष बहुवचने आत्मनिपदि लभन्ते
लभन्ते समीचीनं भगिनि सत्कारेण ते सुखं तत्र लभन्ते परस्मैपदि
तस्य भवति परस्मैपदि लभन्ति
प्राप्नुवन्ति समीचीनं प्राप्नुवन्ति समीचीनं अस्तु हरिमहोदय अग्रिमं बालौ
बालौ क्रीडया मोदेते बालौ द्विवचनं प्रथमपुरुष कर्तृपदं क्रीडया सप्तमी विभक्ति
तृतीया विभक्ति क्रीडया क्रीडा
विभक्ति मोदेते आत्मनेपदि प्रथमपुरुष द्विवचनं
द्विवचनं बालौ अस्ति द्विवचनम् अतः मोदेते अपि द्विवचनं समीचीनं
द्विवचनं
द्विवचनं समीचीनं भानुभगिनी अग्रिमं
महोदय क्रीडापटवः स्पर्धन्ते
अहं चिन्तितवान् भवती स्पर्धते इति क्रियापदम् इच्छति इति अतः एतत् अपि भवती एव करोतु इति चिन्तितवान्
क्रीडापटवः इत्युक्ते
क्रीडापटु अस्ति भगिनि यः क्रीडायां निपुणः इति मन्ये स्पोर्ट्स्मेन् क्रीडापटु गुरुः गुरु गुरवः क्रीडापटु क्रीडापटुः क्रीडापटुः क्रीडापटु
क्रीडापचनं
किं
बहुवचनं प्रथमपुरुष
प्रथमपुरुष बहुवचनं
बहुवचनं स्पर्धते एकवचनं स्पर्धन्ते बहुवचनं
बहुवचनं समीचीनं भगिनि समीचीनं द्विवचनरूपं किम् अस्ति
स्पर्धेते
स्पर्धेते इति समीचीनम् अस्तु इदानीम् अग्रे एतत् समापयितुं शक्नुमः इति मन्ये तत्र अभ्यासं समीचीना एव अस्ति अस्तु रमाजयन्ती भगिनी अग्रे
आं महोदय सज्जनाः लोकमङ्गलं कामयन्ते सज्जनाः बहुवचनं प्रथमपुरुष बहुवचनं and लोकमङ्गलं कामयन्ते आत्मनेपदि बहुवचनं प्रथमपुरुष बहुवचनं
तत्र लोकमङ्गलम् इति कीदृशपदं भवति
लोकमङ्गलं कर्तृपदं
न न सज्जनाः कर्तृपदं
सज्जनाः कर्तृपदं
कामयन्ते
लोकमङ्गलम् इस् I'm not sure.
कर्मपदम् अस्ति भगिनि तत्र अहं वृक्षं पश्यामि अहं पश्यामि तत्र पश्यामि इति क्रियापदं कः पश्यति अहम् इति तत् कर्तृपदमस्ति, किं पश्यामि तत् कर्मपदमस्ति.
अस्तु महोदय.
तत्र सज्जनाः कामयन्ते, किं कामयन्ते? लोकमङ्गलं कर्मपदं. तत्र कामयन्ते इति तत्र अन्यपदं परस्मैपदी क्रियापदं किं तत्र वक्तुम्
इच्छन्ति?
इच्छन्ति. समीचीनं. सज्जनाः लोकमङ्गलम् इच्छन्ति. समीचीनम्. इच्छन्ति. समीचीनं.
धन्यवादः.
रामनाथ महोदय अग्रिम.
दरिद्राः कष्टं सहन्ते. दरिद्राः बहुवचनं, कष्टं तत्र सर्वपदं, सहन्ते प्रथमपुरुषः बहुवचनं. दरिद्राः मीन्स् पीपल् वितौट् मनी. कष्टं सहन्ते मीन्स् दे आर् यूस् टु दट् आर् दे मेनेज्
यूस् टु दट् सहन्ते. सहन्ते
सहन्ते मीन्स् दे
बेर् बेर्
अनुभवन्ति.
बेर् वित् दट् बेर् वित् दट्
बेर् वित् दट् टालरेट् इति. कुन्ती कष्टं सहति इति सहते इति
अनुभवन्ति.
अनुभवन्ति अनुभवन्ति सहन्ति. समीचीनं. रघुपतिमहोदय अग्रिम.
ते सम्यक् भाषन्ते. ते प्रथमपुरुष बहुवचन सम्यक्. सम्यक् अव्यय अस्ति वा? सम्यक् विशेषण. सम्यक् भाषन्ते. भाषन्ते सम्यक् भाषन्ते आत्मनेपदिदातु प्रथमपुरुष बहुवचन भाषन्ते वदन्ति
वदन्ति इति समीचीनमेव अस्ति. सति महोदय. अस्तु. अग्रे भानुभगिनी अग्रे.
युवां कुत्र पलायेथे? युवां द्वितीय मध्यमपुरुष द्विवचनं. युवां कुत्र पलायेथे? पलायेथे एस्केप्.
वयं दृष्टवन्तः खलु चोरः आरक्षकात् पलायते.
युवां कुत्र पलायेते? मध्यमपुरुष द्विवचनं.
द्विवचनरूपं. समीचीनं भगिनि. युवां कुत्र पलायेते? समीचीनं. सरला भगिनी अग्रिमं.
त्वं संस्कृतेन भाषते. मध्यमपुरुष एकवचनं, संस्कृतेन तृतीया भवति एकवचनं, भाषते भवति मध्यमपुरुष एकवचनं आत्मनेपदी. भाषधातु वदति. त्वं वदते भवति परस्मैपदी.
समीचीनम्. अस्तु. अस्तु. केवलम् अन्यत् एकं वदन्ति. वदसि.
त्वं वदसि.
वदसि. वदसि. अस्तु. हरिमहोदय यूयम् इति.
यूयं चित्राणि. यूयं कष्टं सद्वे. यूयं मध्यमपुरुषं बहुवचनं.
समीचीनं. यूयं कष्टं सहद्वे.
सहद्वे आत्मनेपदी मध्यमपुरुषं बहुवचनं.
बहुवचनं. अस्तु. अत्र समयः जातः इति कृत्वा
ते कष्टम्.
अस्तु. तत्र अग्रिम. अस्तु. कोऽपि प्रश्नः अस्ति वा तत्र? यत् शेषभाग यदस्ति सर्वे कर्तुं शक्नुवन्ति इति मन्ये, तत्र कुर्वन्तु. केवलम् उत्तमपुरुष तदेव अवशिष्टम् अस्ति, तद् कर्तुं शक्नुवन्ति इति मन्ये. अस्तु. अतः समय जातः प्रश्न यदि कोऽपि प्रश्नः नास्ति चेत् विरमामः अग्रिमसप्ताहे मिलामः
धन्यवादः
नमस्कारः नमस्कारः धन्यवादः
नमस्ते
नमस्कारः नमस्ते